हव्यकव्यं तथा गतिं लोक सदाशिवो यः आराधितो यश्च ददाति सर्वा नमामि दानप्रियमिष्ट देवं
नमामि सोमेश्वरं स्वतंत्रं उमापतिं तं विजयं नमामि।